अद्य एकं सुभाषितम् अपि पश्यामः. आम् शेर् करोमि एकं निमिषम्. आम् सुभाषितं. शुभं ब्रूयात् प्रियं ब्रूयात् भद्रमितैव वा वदेत्, शुष्कं वैरं विवादं च न कुर्यात् केनचित् सह. शुभं ब्रूयात् प्रियं ब्रूयात् भद्रमितैव वावदेत्, शुष्कवैरं विवादञ्च न कुर्यात् केनचित् सह. अन्वयः अत्र अस्ति. सर्वजनः शुभं ब्रूयात्. एतत् अवगतम् इत्युक्ते दिस् इस् इम्प्लैड् सर्वः जनः शुभं ब्रूयात्. ओके, सर्वः जनः प्रियं ब्रूयात् सर्वः जनः भद्रम् इति एव वा वदेत्. ब्रूयात् ब्रू आल्सो इट्स् अनदर् क्रियापदम् इन्स्टेड् आफ् वदति. ब्रू धातु आल्सो इट्स् देर्, इट्स् द सेम् मीनिङ्ग्. सर्वः जनः केनचित् सह शुष्कवैरं विवादं च न कुर्यात्. ओके, सो this also kuryat kriyapadam last you have to put and you have to just arrange it accordingly, so you get it's little clearer, especially when you are new. So anvayaha is important. So tatparyam evam asti. Uttamam priyam cha vachanam vaktavyam. Vaktavyam uttamam priyam cha vachanam vaktavyam मङ्गलम् एव वक्तव्यम्. शुष्कवैर्यं शुष्कतर्कं च कदापि केनापि सह न करणीयम्. शुष्कवैरं शुष्कतर्कं च कदापि केनापि सह न करणीयम्. शुष्कः इत्युक्ते निर्जलः, ड्रै, लैक् विदौट् एनी मीनिङ्ग्, दट्स् वाट् इट् मीन्स्. सो यु हेव् टु speak very, I mean, carefully, nicely, be nice to everyone, don't start a fight without any substance. That's what the Subhashitam means. Aham grahapatam dattavati, ekam katham dattavati, patitavantah va sarve. सर्वै पठि. आं धन्यवादः. रामेश्वरी भगिनी प्रेषितवती च. ऐ डिण्ट् आस्क् टु सेण्ड् बट् शी सेण्ट् इट्, सो वी केन् लोकेट् इट्. अण्ड् इफ् एनी क्वश्चन् इस् देर् एनी क्वश्चन् बै एनिबडि अबौट् द स्टोरी, बिकास् शी डिड् अ गुड् जाब्. ऐ विल् शो यु हौ, ऐ मीन् इफ् यु हेव् डन् लैक् दिस् even you will get good practice. Let me share how she has done. ओके, सो सा किं कृतवती इत्युक्ते शब्दपरिचयं कृतवती. शी स्टार्टेड् वित् सी अरण्यप्रदेशः एकः गृहस्थो अस्ति करोति. सो ही शी हेज़् जस्ट् ब्रोकन् अ पाट् एण्ड् शी हेज़् जस्ट् गिवन् आल् द पदपरिचयः. सो इफ् यु डू दिस् लैक् यु विल् गेट् गुड् प्राक्टिस् अट्लीस्ट् इफ् यु डोण्ट् इफ् यु रैट् इट् आल्सो यु गेट् इफ् यु आर् नाट् फेमिलियर् वित् देवनागरी और् संस्कृतभाषा इट् विल् बिकम् वेरि गुड् अदर्वैस् आल्सो अट्लीस्ट् लुक् एट् आल् दीस् वर्ड्स् एण्ड् इफ् यु हेव् डन् दिस् This is how you get familiar and comfortable with all the vibhakti. Yeah, I know now hopefully you will get, just if you read, you will get a overall meaning, right? Tatparyam. And if you look at some shabda portions, you'll just say if you do this, you will get a good idea. If I went over it and she has done a great job. So if anybody wants it, I'll send it to them. If you... It's pretty okay story. It's not that hard. It was pretty good. So if anybody wants it, I can send it to them. So Uttama Karambakam. So Shesha Bhagam Katam Patamaha Kinchit Shesha Masti Iti Manu Vidalas Katam. एकदा Okay, there was some background noise, so I muted everyone. So we'll start with reading the leftover. We can start with Pratidinam. I think we did, but we can start with Pratidinam. Kasya Paryayatiyam. Suhasini Bhagini Patitavati va? गतसप्ताहे
न भगिनि
प्रतिदिनं पठतु प्रतिदिनम् आरभ्य
प्रतिदिनं सिंहादयः मृगान् मारयित्वा मांसम् आनीय चण्डरवस्य पुरतः स्थापयन्ति चण्डरवः आनन्देन तत् खादति एवमेव सः विनायासं सुखेन जीवति स्म
किञ्चित् वदति वा अत्र प्रतिदिनं सिंहादय किम् अवगतम्
Want the meaning, Bhagini?
Meaning or if you can maraitva, what does it like mragan? You can just start. Simvadaya.
Mragan maraitva mamsam ani. Okay. Every day the lion it was marayitva tva form tva after killing that so mamsam aniya chandaravasya puratah sthapayanti so it has to place it in front of the चण्डरवः सो चण्डरवस्य इस् षष्ठी विभक्ति देर् स्थापयन्ति इस् बहुवचन
सिंहादयः सिंहादयं मृगान् मारयित्वा रैट् सो आदयः मीन्स् देर् इस् अ बहुवचन सो स्थापयन्ति सो देर् इस् अ बहुवचन देर् बिकास् सो अग्रे
चण्डरवः आनन्देन तत् खादति. ओके, आनन्देन इस् तृतीया विभक्ति. सो इट् इस् ईटिङ्ग् वित् हेपिनेस्. सो एवमेव सः विनायासं सुखेन जीवित स्म. ओके, दिस् इस् पास्ट् कण्टिन्यूस् टेन्स् बिकास् स्म इस् देर् and sukena is again tritiya vibhakti. This one I don't know, vinaya sam, what is that bagini? I don't know that one.
Vina ayasam. Vina means without, there is a sandhi, the two words are combined. Ayasam, without any difficulty. Okay. Without any kashtam. Okay. Easily. Okay, vina means without any difficulty. Sukena jivati.
Sukena jivati.
So, is it Dvitiya Vibhakti Bhagini?
Naam. Naam Bhagini.
Naya.
Saha Vinayasam Sukena Jivati. Naam. Dhanyavada Bhagini. Agre. वैभवी भगिनी पठतु वाक्यत्र.
आम् आम् नमो नमः भगिनि. एकदा चण्डरवः सभायाम् उपविष्टवान् आसीत्. अन्ये प्राणिनः अपि पार्श्वे आसन्. तदा अकस्मात् दूरप्रदेशतः शृगालसमूहस्य कोलाहलः श्रुतः. कोलाहलः श्रुतः. स्वबान्धवान्ना ध्वनेः श्रवणात् चण्डरवस्य महान् आनन्दः जातः. तस्य शरीरं सो वन्स् चण्डरव इन् द सभा हि वास् सिटिङ्ग् and all the other animals were sitting behind him. So from once they were sitting from far away, they heard some chaos going on, and sambhavan dhane shravanat chandra sama. So with this chandra felt very happy. विभक्ति सभायां द्वितीया विभक्ति उपविष्टवान् भूतकाल उपविष्टवान् आसीत् बोथर् भूतकाल
उपविष्टवान् आसीत् सभायां किम् उक्तवती भवती.
इट्स् नाट् द्वितीया विभक्ति सभायां
सभा Yeah, what did you say in English? What did you translate? In like, that sabha.
So when they were sitting together, or when there was assembly going on.
Sabhayam, in the sabha, they were sitting in the sabha. In, on, what vibhakti?
Saptami.
Saptami? Saptami. Saptami.
Sabhayam.
Only please, only whoever is reading answer so that let them think. Okay. Agrima vakyam bhagini.
Anne praninah api parshave asan. So this is asan is again bhutkal.
Bahuvachanam.
Asan bahuvachan. Yeah. तदा अकस्मात् दूरप्रदेशतः शृगालसमूहस्य षष्टि विभक्ति कोलाहल श्रुत. इस् देर् एनिथिङ्ग् एल्स्? पञ्चमी विभक्ति
पञ्चमी दर्शयति. दूरप्रदेशात् दूरप्रदेशात् इस् real like in a vibhakti table you can say juvra pradesha kolahalah shrutah suta asit is implied there kolahalah shrutah asit it's a commotion lot of noise shrutah is a they heard the kolahal agrima vakyam
so bandhavan nam dhvane bandhavan nam is it shashti
nam bhagini
is it shashti
yes
okay
swabandhavanam swabandhavanam
स्वबान्धवानां षष्टिविभक्ति ध्वनेः श्रवणात् श्रवणात् इस् अगेन् पञ्चमी
आम् ध्वनेः किम् अस्ति भगिनि चिन्तयतु
ध्वने इट् सौण्ड्स् लैक् सप्तमी बट् ऐ एम् नाट् श्यूर् ध्वनि
रैट् इकारान्त ikaranta so what you have to do you have to always keep a table so dhanihi ikaranta you have to look dhanihi where is it dhanihi shashti vibhakti because they are all together right so usually you get that clue also when they are together
okay.
बान्धव इति जानाति वा किं बान्धवः स्व मीन्स् ओन् ओके स्वबान्धवानां ध्वनिः हि हर्ड् द नाय्स् आफ् दिस् ओन् ओन् पीपल् महान् आनन्दः अति आनन्दः महान् इत्युक्ते अति आनन्दः जातः हियर् दे हेव् जस्ट् इम्प्लैड् दिस् आनन्दः जातः आसीत् दे कुड् हव् एडेड् बट् देट् इस् लैक् अ इम्प्लैड् ओके इट्स् अन्तर्गतम् अस्ति यु नीड् नाट् एड् बट् इट्स् इम्प्लैड् हियर् धन्यवादः
भगिनि ऐ हेव् अ क्वश्चन् in the second line praninah api parshve what is parshve kah vibhakti asti
parshve api saptami bhagini
saptami disaiti
dhanyawad bhagini dhanyawad bhagini
himange agrima वाक्यत्रयं पठतु भगिनि
तस्य शरीरं पुलकितम् अभवत् सः उत्थाय आनन्दातिरेकेण नेत्रे निमील्य तारस्वरेण विरौतुम् आरब्धवान् तदा सिंहाद्वयः प्राणिनः एषः सामान्यः शृगालः एव न तु ब्रह्मणा प्रेषितः इति ज्ञातवन्तः अतः एकेन एव प्रहारेण ते तं मारितवन्तः ओके सो तस्य शरीरं पुलकितम् अभवत् पुलकितं
काइंड ऑफ ही वाज हैप्पी
ही वाज हैप्पी सः उत्थाय आनन्दातिरेकेण नेत्रे निमील्य तारस्वरेण विरौतुम् आरब्धवान् सो लैक् ही आल्सो स्टार्टेड् मेकिङ्ग् द सेम् नाय्स् एज़् हिस् ब्रदर्स् इस् इट् सो तदा सिंहादयः प्राणिनः एषः सामान्यः शृगालः एव न तु ब्रह्मणा प्रेषितः इति ज्ञातवन्तः सो हियरिङ्ग् देट् वाय्स् आल् दि अदर् एनिमल्स्
Siha and other animals, they came to know that he is the same jackal and not one sent by God. Yeah. And so they started beating him. So they all started beating him. Is it like that?
Yeah, Maritavanta. Brahm Veshitana.
Okay. So Tasya is Shashti Vibhakti. Shariram is Dvitiya Vibhakti. Pulakitam could be adjective. I'm not sure. Pulakitam. Abhavat is Bhutakala Rupani. Saha is Tad Shabdasya Prathama Vibhakti. Uthaya is Chaturthi. Lyabanta. Okay. Lyabanta. Ananda Tirekena is Ananda Atirekena. Yeah, Ananda Atirekena is Atirekena Tritiya, probably. Tritiya.
Tritiya. I'm beginning.
Netre is Netra Netram Shabdasya Dvitiya. Dvivachan. Nimilya is Nimilya.
Labanta is closed. He closed. Okay. Nimilya, that also is a Labanta.
Okay. Taraswarena, again, Tritiya Vibhakti, Prathama, Tritiya Ekvachan, Taraswarena. Virautum, is it Tum Pratyaya? I'm not sure.
Tumun.
Yeah, Tumun Pratyaya. Arabdhavan, again, Bhutakala Rupani. Arabdhavan. Tada is Avyaya, probably. Tada. Yeah. Siha Dvayaha. So, two Siha. Lions. Siha.
No. Simha Adi Adya. Adayaha. Adi Shabda. Oh. Etc. Oh, okay.
Okay. And Praninaha, is it Prathama Bahuvachan? Praninaha?
No, Pranin. Yes, begin. Yeah, Pranin.
Eshaha is Etad Shabdasya Prathama. Eshaha. Samanyaha is Visheshan, I guess.
Visheshana Samanya Shrugala.
Okay. Eva is again Avyayaha. Nyatavantaha is Nyatavantaha is Bhutkal Bhuvachan. Bhutkal Rupa Bhuvachan.
Natu Brahmana Preshitaha quotes.
Brahmana.
Brahman. That also is a Halanta Shabda.
Okay.
Yeah.
Okay. And Preshita.
So and again, who are out there? Okay. Sent. Preshita.
Okay. So what sent, is. So I just have one question, Bhagini. In the Sanskrit dictionary, whenever you type a word, whenever you want to search a word, some English words are written in besides the word, like S-E-N-T. So is it like sentence or what is that? Or adjective or like that it is written, right? So what is that, those words?
S-E-N-T, it's written S-E-N-T?
Yeah.
It may be in a sentence. Yeah, that's in a sentence, yeah.
Okay.
Yeah.
So here,
M is M is masculine, right? N is neuter gender, F is a feminine. And in verb and all, you know, and that is usually root, it will be put it in bracket, right? That will be the root word for the verb.
Okay. And here you said no and two, these are avyayas, right? Avyaya.
No, two, yeah. No, two is like you're stressing. That's all it is. No, two.
Okay.
No, you and, know, no. It's not. Okay.
And Brahmana, what is that you said?
Brahman.
So I did not get what. Yeah, but
it's a Brahman is a tritiya. It's not sent by Brahman, means God. Okay. He's not sent by God. He's a samanya shrugalaha.
Okay.
He's not sent by natu. He's not sent by God. That's what it is. They are like stressing it, like natu Brahmana preshitaha. Agrima vakya?
Attaha, I guess here is avyaya.
Avyaya.
So therefore, this means therefore, right?
Yeah.
So ekena again kritya, ekena ekena eva avyaya, praharena again kritya. Te is tat shabdasya bahuvachan, te.
Mm-hmm.
And tam is him, like tam, dvitiya, tat shabdasya dvitiya ekavachan. And maritavantah again, bhutakala rupasya bahuvachan. Maritavantah.
Maritavan. So all of them just killed him. Maritavanta means, I think it's, I don't know what it implied, whether they killed it or they just beat him to death, whatever you can get there the meaning, I guess.
Okay.
I think that's about it. Dhanyavada Bhagini.
Dhanyavada.
अग्रिमं गीता सोपानं पश्यामः परन्तु ऐ वाण्टेड् टु जस्ट् से समथिङ्ग् ऐ वास् थिङ्किङ्ग् अबौट् सी दिस् षष्टि विभक्ति यु केन् यु आर् आस्किङ्ग् नो सम्बडि वास् आस्किङ्ग् अबौट् दिस् भगवान् आदित्यानां विष्णुः हौ इट् इस् षष्टि ऐ थिङ्क् यु केन् ट्रान्स्लेट् इन् टु लैक् For example, Devonka Dev, Mahadev, like that you can translate it. Then it's like Shashti. So if you translate it into English, you may get confused. So it's better to translate in our Indian languages. Then it may be much easier. So it's that kind of a meaning here. So all I wanted to, I think I just saw this. Okay.
नमस्कार किञ्चित् अभ्यासं कुर्मः इदानीं किञ्चित् पुनस्मरणम् अनिता भगिनी अत्र पश्यतु पठतु अवधेयम् किञ्चित् उच्चैः
आं महोदय
एतत् सम्यक्
एतत् पुल्लिङ्गे नपुंसकलिङ्गे च स्त्रीलिङ्गे एतस्य एतयोः
न स्त्रीलिङ्गे इस् नेक्स्ट् लैन् सो ओन्लि द फस्ट् लैन्
सोरि
So, pullinge, napunsakalinge, it will be the same. Okay?
Etasya.
Ah, patutu.
Etasya, etayoho, etesham. Strilinge, etasyaha, etayoho, etasam. Tatshapta, pullinge, napunsakalinge, tasya tayoho, tesham. Strilinge, tasyaha, tayoho, tasam. अस्पत् शब्द त्रिषु लिङ्गेषु मम आवयोः अस्माकं युष्मत् शब्द त्रिषु लिङ्गेषु तव युवयोः युष्माकम्
सम्यक् जानाति वा अस्मद् युष्मद् वाट् इस् द डिफरेन्स्
अस्मत् शब्द इस् आल् अबौट् I me myself type asmat shabda yushma
asmat aham aham yeah. aham shabdasya shashti vibhakti and yushma this tvam
tvam yours
tvam yuvam yuvam so tava yuvayoho yushmakam is the षष्टि विभक्ति वद धन्यवाद भगिनि
धन्यवाद
अभ्यासं बालकृष्णमहोदय केन् यू डू द फस्ट् टू हियर्
आम् नमस्ते महोदय
नमस्ते महोदय
विद्यमानस्य शब्दस्य षष्टिविभक्तिरूपेण रिक्तस्थानानि पूरयत उदाहरणं भारतस्य राजधानी देहली भारतं हस्तिनपुरं हस्तिनपुरस्य राजा धृतराष्ट्रः रविः रविः रवेः पुत्रः कर्णः
सम्यक् तृतीयमपि करोतु
वेणु वेणोः ध्वनिः मधुरः
सम्यक् महोदय उत्तमं धन्यवादः भूमि भगिनी अस्ति वा भूमि भगिनी
नमस्कार महोदय
नमस्ते अग्रिम त्रयं करोतु
मुनेः मनः प्रशान्तं भवति लतायाः छाया शीतला भवति अर्जुनः गुरोः प्रियः
सम्यक् उत्तमं भगिनि धन्यवादः
धन्यवादः
उषा भगिनी अग्रिमत्रयं करोतु
नमस्कारः
नमस्कारः
सप्तमं वा मनसस्तु परा बुद्धिः यो बुद्धेः परतस्तु सः मातुः स्नेहः अतुलः वस्तुनः मूल्यम् अधिकम् धन्यवादः
Mohode, I have one question.
What is it?
Vastu, is it Vastoho or Vastunaha? I did not get. Why is it Vastunaha? How does the word work?
Ukaranta. Mm. अत्र पश्यतु
मधु यस्
मधु षष्टि पठतु
मधुनः मधुनोः मधुनाम्
मधुनाम्
सो
वस्तु विल् बिकम् द सिमिलर् वस्तुनः वस्तुनोः वस्तूनाम्
ओके ओके यस् धन्यवादः
धन्यवादः सुबोध महोदय अत्र can you do Mathura and Rukmini atra?
Ha, amohadya. Mathura yaha Raja Krishna. Rukmini yaha Patihi Krishna.
Ha, samyak.
Dhanyavada.
Dhanyavada.
कृष्णस्य पत्नी नु
या या कृष्णस्य कृष्णः खलु कृष्णः कृष्णस्य वाट् इस् योर् डौट् महोदय ऐ कुड् नाट् अण्डर्स्टाण्ड्
Krishnayaha, he said, I heard like that, I don't know what he said. I heard that, he said...
I think he said Mathura... No, no, Rukmanyaha Patihi Krishnaha, I think he said.
Okay, maybe. Sorry.
Rameshwari Bhagini, can you do Devaki and Meera?
Devakyaha Putraha Shri Krishnaha Meerayaha Swami Shri Krishnaha.
Samyak. Dhanyavada Bhagini.
Dhanyavada.
Oh, by the way, your homework was very good. Uttama karyam bhagini.
Dhanyavada mode. I was not in the class in the beginning. So I joined late.
What was it?
I joined late today.
Chitra bhagini.
Namaste mahodaya.
Namaste. Can you do Kuchelaha and Mathura?
Kuchelasya Mitram Krishnaha Mathurayaha Raja Krishnaha.
And Vasudevaha?
Vasudevasya Putraha Krishnaha.
Samyak. Dhanyavada Bhagini.
धन्यवादः महोदय
ओके सो दिस् इस् समथिङ्ग् सिमिलर् यु केन् जस्ट् ट्रै दिस् लेटर् गृहे करोतु ओके दिस् वि केन् ट्रै क्विक्लि वैभवी भगिनी प्रथमद्वयं करोति उदाहरणं पठतु प्रथम
आं महोदय सेने सेनयोः मध्ये युद्धं भवति हस्तौ संयोजनेन अञ्जलिः भवति
हस्तौ षष्टि विभक्ति किं भवति?
हस्तयोः संयोजनेन अञ्जलि भवति. संयोजनेन अञ्जलि भवति. सः गुरु आशीर्वादं प्राप्नोति. So I have to use dvivachana.
Guru is what? What vibhakti, what vachanam?
Guru is ukaranta shabdaha.
Pratama vibhakti, eka vachanam va? एकवचनं गुरुः अस्ति. सो गुरुः गुरु गुरवः अत्र पश्यतु शिशुः शिशुः खलु सो इट् विल् बि गुरुः गुरु इस् प्रथमा विभक्ति द्विवचनम् So, षष्टि विभक्ति
सः गुरवोः आशीर्वादं प्राप्नोति.
यू शुड् से गुरुवोः गुरुवोः आशीर्वादं. धन्यवादः भगिनि.
धन्यवादः.
जया भगिनी अग्रिमत्रयं करोतु.
आं महोदय, नमस्कारः. भ्रातरौ कलहेन भगिनी खिन्ना भवति. भ्रातरौ
किम् अस्ति?
द्विवचन कर्तारौ भ्रातृ प्रातिपदिकम् भ्रात्रोः कर्त्र्योः भ्रात्र्योः
भ्रात्रोः
भ्रात्रोः भ्रात्रोः कलहेन भगिनी खिन्ना भवति.
एकनिमिषं. माता
पित्रोः
पित्रोः
भ्रात्रोः श्रीकृष्णः सेने मध्ये अर्जुनस्य रथं स्थापयति. सेना सेने सेनाः सेनयोः
श्रीकृष्णयोः
मध्ये अर्जुनस्य रथं स्थापयति. अद्य कवि सम्मानन कार्यक्रमः अस्ति. कवि ईकारान्त
कवि इस् वाट् वचनं भगिनि?
कवि इस् बहुवचनं आफ् लैक् नदी बहुवचनं आफ् द्वितीयविभक्ति बहुवचनम्
कवि पुल्लिङ्गशब्दः कविः कवी कविः कवि कवयः
कवयः कवयः
द्विवचनं
द्विवचनं कवयोः 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 सम्मानं कार्यक्रमः अस्ति.
धन्यवादः भगिनि.
धन्यवादः महोदय.
महोदय, इट् इस् कव्योः रैट्?
कव्योः, या. वै वाट् इस् वाट् ओके भवती पठतु, उदाहरणं पठित्वा अग्रिमद्वयं करोतु सरस्वती भगिनी.
Mama, the sixth one?
Do the seventh.
Okay.
And then eighth and ninth.
Kauravaha pita dhritarashtraha. Kauravanam pita dhritarashtraha. Kauravanam bahuvachanam of Kauravaha. Kauravanam shashti vibhakti bahuvachanam. Pandavaha rakshakaha कृष्णः. पाण्डवानां रक्षकः कृष्णः. पाण्डवाः इस् बहुवचनम् आफ् पाण्डवः, सो षष्ठी विभक्ति आफ् पाण्डवाः इस् पाण्डवानां.
Sixth also you do, I think we missed that. Mama
भगिन्यौ निवासः ग्रामे अस्ति. Baginyau is dvivachanam of bagini, bagini shabda. So mama baginyoho nivasaha grami.
Samya. Dhanyavaad. राजश्री भगिनी अग्रिमं करोतु, अग्रिमद्वयं.
भारतीयाः धर्मः सनातनः. भारतीनां धर्मः सनातनः, षष्ठी बहुवचनं. वयं भाषा संस्कृतम्.
एकनिमिषं भगिनि, केन् यु से वाट् इस् द षष्ठी अगेन्?
भारतीयाः भारतीयानां भारतीयानां.
सम्यक्.
भारतीन् इट् ओण्ट् बि भारतीनां न, भारतीयानां.
भारतीयानां, ऐ थिङ्क् यु सेड् भारतीनां, बट्
ऐ रियलैस् भारतीयानां धर्मः सनातनः. देन् वयं भाषा संस्कृतं. वयं षष्टि बहुवचनम् इस् अस्माकं भाषा संस्कृतम्.
सम्यक्, धन्यवादः भगिनि.
धन्यवादः.
साहित्या भगिनी अग्रिमद्वयं करोतु.
नद्यः नदीनां जीवनः परोपकारार्थं जीवनं परोपकाराणां परोपकारार्थं भाषाणां जननी संस्कृतम्.
भाषाणां जननी संस्कृतम्.
लैक् अण.
Okay,
thanks.
धन्यवादः. ओके, दिस् आल्सो गृहे किञ्चित् करोतु. आल् दीस् आर् लैक् षष्टि. Fill in all these. I think most of these we have done.
For Bharatiya Naam, is it Na or Ana?
Naam, Naam. No.
Okay, thank you.
Okay, this also you can do. You'll have to like pick and match. So 6 and 7 we'll do as home assignment. Okay, we can do this a little bit. Aparna Bhagini, patatu.
Udarana, pituhu pita pitamaha, lavaha dasharataha, lavasya pitamaha dasharataha. Pituh mata pitamahi, lavah and kausalya they have given. Lavasya pitamahi kausalya. Matuh pita matamah, kushasya matamah janakah. Matuh mata
matamah
matamah janakah.
विसर्गः अस्ति मातामहः
मातामहः. मातुः माता मातामही, कुशस्य मातामही सुमेधा.
सम्यक्, धन्यवादः.
धन्यवादः महोदय.
बालकृष्णमहोदय अग्रिमं करोतु, अग्रिमद्वयं करोतु. चतुर्थं
पुत्रस्य पुत्रः पौत्रः दशरथस्य पौत्रः लवः पुत्र्याः पुत्रः दौहित्रः जनकस्य दौहित्रः कुशः.
सम्यक्, धन्यवादः महोदय. भूमि भगिनी अग्रिमत्रयं करोतु.
सहोदरस्य पत्नी भ्रातृजाया, लक्ष्मणस्य भ्रातृजाया सीता, पत्युः सहोदरः देवरः, सीतायाः देवरः लक्ष्मणः, पत्न्याः सहोदरः श्यालः, अर्जुनस्य श्यालः द्रष्टद्युम्नः.
सम्यक्, धन्यवादः भगिनि.
धन्यवादः.
अनिता भगिनी अग्रिमद्वयम्.
पत्युः भगिनी ननान्दा, रुक्मिण्या ननान्द सुभद्रा.
पुनः वदतु, चिन्तयित्वा वदतु.
आम् महोदय. सुभद्राया ननान्द रुक्मिणी. पत्युः भगिनी
ननान्द, सो रुक्मिणी एण्ड् सुभद्रा आर् गिवन्.
या रुक्मिणी, रुक्मिणी सिस्टर् इन् ला इस् सुभद्रा.
सो रुक्मिणी षष्टि विभक्ति किं भवति?
गौरी रुक्मिण्याः.
आम्,
कस्मिन्याः ननान्दा सुभद्रा.
सम्यक्.
पितुः सहोदरः पितृव्यः अर्जुनस्य अर्जुनस्य पितृव्यः धृतराष्ट्रः.
अग्रिममपि करोतु.
मातुः सहोदरः मातुलः दुर्योधनस्य मातुलः शकुनिः.
धन्यवादः भगिनि. So I think some of these we have already used in the homework. Maybe we should have done this before doing that. But dhanyavada bhagini. Hemangi bhagini, samapayatu.
Aam mahodaya. Bhaginyaha putraha bhagineyaha bhagineyaha. Yeah. कंसः कृष्णः. कंसस्य भागिनेयः कृष्णः. पितृव्यस्य पत्नी पितृव्या. अर्जुनः गान्धारी. अर्जुनस्य पितृव्या गान्धारी. मातुलस्य पत्नी मातुलानी. अभिमन्युः रुक्मिणी. अभिमन्योः अभिमन्योः मातुलानी रुक्मिणी.
सम्यक्.
धन्यवादः.
धन्यवादः. So yeah, you can refer to this. I think last class people had some questions because this is very specific. Okay, putrasya putraha and putriyaha putraha is different. Even though in English it may be the same word, so...
Mahodaya, brother's son, bratuhu putra is... Bratuhu putraha... What is the word you said last time?
You can say bratru putraha or bratru jaha.
Bratru jaha.
Oh, is it? Not given here. Yeah. Okay.
Okay, thank you.
Okay, this also you can... Okay, let's try this exercise. So do okay, let's do one or two of these. Rameshwari Bhagini, Udaharanam Patatu and do the next two or three. So here, basically, you are matching this with the whatever is written here. Okay.
Ahamkarasya phalam krodha.
Upari asti.
So,
do you have the book with you, Bhagini? Otherwise, I can keep moving it up and down.
Aham mohode. Mama samipi pustakam asti. क्षमायाः फलं शान्तिः. उद्वेगस्य फलं सन्तापः.
अग्रिममपि करोतु.
आशायाः फलं दुःखम्.
सम्यक्. धन्यवादः भगिनि.
धन्यवादः.
So like this, it's difficult for me to move up and down. So you can do this also at home. It's all the Shashti Vibhakti for the different types. Okay. Akaranta Pullinga, Akaranta Srilinga, everything. So we'll make it a little more conversant for you. उषा भगिनी किञ्चित् पठतु अत्र.
आं महोदय, एतानि सुभाषितानि उच्चैः पठत. पुष्पस्य फलमिच्छन्ति, पुष्पं नेच्छन्ति मानवाः. फलं
भगिनी पुण्यस्य पुण्यं पुण्यमस्ति खलु पुण्यस्य.
आमां महोदय, क्षम्यताम्. पुण्यस्य फलम् इच्छन्ति, पुण्यं नेच्छन्ति मानवाः. फलं पापस्य नेच्छन्ति, पापं कुर्वन्ति यत्नवः.
तात्पर्यं
जनाः पुष्पस्य फलमिच्छन्ति. क्षम्यतां, पुण्यस्य फलम् इच्छन्ति किन्तु पुण्यकार्याणि कर्तुं न इच्छन्ति. पापस्य फलम् इच्छन्ति किन्तु प्रयत्नेन पापकार्याणि कुर्वन्ति.
अर्थम् अवगतम्?
अवगतम्. पुण्यस्य
जनाः पुण्यस्य फलम् इच्छन्ति किन्तु पुण्यकार्याणि कर्तुं न
इच्छन्ति.
The people want the result without doing the karma or the deed. Papasya phalam na ichchanti. Okay? They don't want the result of papa, but they keep doing papa. Kinchit Subhash. Dhanyavada Bhagini.
Dhanyavada.
Suhasini Bhagini Agrimam Patatu.
अहस्तस्य भूषणं धानं सत्यं कण्ठस्य भूषणं श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनं? धानकरणम् एव हस्तस्य भूषणं, सत्यभाषणम् एव खण्डस्य भूषणं, शास्त्रश्रवणम् एव कर्णस्य भूषणम्. अतः अन्यैः आभरणैः किमपि प्रयोजनं नास्ति.
अवगतं वा भगिनि?
अवगतं महोदय.
हस्तस्य भूषणं दानं, दट् मीन्स् द ब्यूटि आर् द आर्नमेण्ट् आफ् द हेण्ड् इस् दानं, यु नो टु गिव्. सत्यं कण्ठस्य भूषणं, to speak the truth is the beauty or the jewelry of the throat. Okay, shrotrasya bhushanam shastram, so it is given here. See, shastra shravanam eva karnasya bhushanam, so listening to the shastram is the beauty of the ear, or is the, what is the word, abharanam, like jewelry ornament. Okay, that's what it means basically. So what is the need of actual ornament or jewelry at the end? It's just a subhashita. Dhanyavada Bhagini.
Dhanyavada
Bhagini. Okay. Okay, this also. Agresa Rama. So,
Ekah Prashnah Asti. The rest is in the Shashti Vibhakti, so I don't understand the meaning of why they यूस् तृतीया हियर् अतः अन्यैः आभरणैः किमपि प्रयोजनं नास्ति. सो तृतीया इस् जनरलि वित् सो दे आर् ट्रैङ्ग् लैक् वित् अदर् ओर्नमेण्ट्स् देर् इस् नो प्रयोजन.
Yeah, yeah, correct, exactly.
Okay.
It will be Tritiya, right? With or...
Yeah. Yeah, so that was the meaning, right? Which I understand.
Uh-huh. Yeah, yeah. So there is no need, exactly.
Okay.
Prayojanam nasti. Kimapi prayojanam nasti. Uttamam bhajini.
Dhanyam.
Subodh Mahodaya, kinchit patatu. So this lesson is Puratah, Prishtatah, Vamatah, Dakshinatah. Hopefully everybody remembers this.
Mahodaya.
Patatu Mahodaya. So Hello. Let me just keep the picture there so you can see. Patatu.
Yogi Shuchau Deshe Asanam प्रतिष्ठापयति तत् आसनं न अत्युन्नतं न वा अतिनीचं भवति. तस्य उपरि योगी कुशान् प्रसारयति. कुशानाम् उपरि कृष्णाजिनं स्थापयति. तदुपरि वस्त्रं स्थापयति. इदानीं वस्त्रस्य अधः कृष्णाजिनं तस्य अधः कुशाः च भवन्ति. योगी तस्मिन् आसने उपविशति. सः दिशः न अवलोकते. वामतः दक्षिणतः पुरतः पृष्ठतः वापि दृष्टिं न प्रसारयति. मनः संयम्य अन्तः वर्तमानम् आत्मानमेव ध्यायति.
सम्यक्. किञ्चित् वदति वा प्रथमवाक्यम्? प्रयत्नं करोतु.
Yogi Shuchau, I think, is with cleanliness. Yogi is a saint, or Shuchau Deshe Asanam Pratishtapayati. So
Asanam is like a seat.
Yes,
Pratishtapayati.
Places the seat.
एकनिमिषम्. सो कुशान् केन् यु तस्य उपरि दट् सेण्टेन्स् केन् यु से संथिङ्ग्?
तस्य इस् सप्तमी. उपरि इस् आन् दट् टाप् आफ् इट्. योगी
तस्य इस् सप्तमी.
सारि षष्ठी. सारि षष्ठी. उपरि योगी कुशान्. वट् इस् कुशान् एक्साक्ट्लि? इट्स् द्वितीया बहुवचन. कुशान् कुशा इस् मीनिङ्ग्
कुशान् इस् लैक् ग्रास् ओर् संथिङ्ग् लैक् दट्.
ओके ओके. प्रसारयति. स्प्रेड्स्. इट् स्प्रेड्स् द
ग्रास्. तस्य उपरि महोदय?
तस्य उपरि. आन् टाप् आफ् इट्.
कस्य?
आसनस्य उपरि.
आसने. सम्यक्. धन्यवादः महोदय.
धन्यवादः
महोदय.
लिटिल्
शुचौ. ऐ डिडन्ट् गेट् दट् वर्ड्.
Shuchau, I think it's like Shuchi. A place.
Clean place.
Means it is
शुचि शुचि सप्तमी विभक्ति एकवचनं
शुचि लाइक अ प्लेस लाइक अ देशे नो सो इट्स इन अ कंट्री और सम yeah some place or area something like that so yeah so it's also something
but what is the root word is
it may be suchi
suchi hi
so
it's like munihi
suchi matihi matihi
okay matihi
I mean, you can do both. I think we mentioned that in one of the classes. So both are right.
Mm-hmm.
Matyam is the one generally used, but I think this was also used.
So is it like Bhumyo, Mahodaya? Is it like Bhumyo?
Bhumi is different.
No, Bhumi Mati is the same, I think.
Bhumyau.
In one story, there was this Bhumyau.
I think that's where the discussion happened about the Bhumyam and yeah.
Shuti is trailing, huh?
Yeah, both you can use, I think.
Dhanyavada, Mohde.
So, tadupari vastram sthapayati. So, asane kushan sthapayati. Tadupari krishnajanam. Krishnajanam is like like an animal skin, right? Like roughly what you can see, like all the old the Rishi Munis used to sit, right? So that is the Krishnajanam. Rameshwari Bhagini Agrima Vakyam Kinchit Parishilayatu
Kushanam. कुशानाम् उपरि कृष्णाजीनं स्थापयति कुशानाम् इज षष्टि बहुवचन कुशः कुशाः कुशानाम्
सम्यक्
कृष्णाजीनं द्वितीया मेबि तदुपरि वस्त्रं स्थापयति तदुपरि तत् उपरि तस्य उपरि वस्त्रं स्थापयति वस्त्रम् इस् द्वितीया विभक्ति इदानीं वस्त्रस्य अधः कृष्णाजिनं तस्य अधः कुशाः च भवन्ति सो वस्त्रस्य इस् षष्ठी एकवचनं वस्त्रं वस्त्रस्य
वस्त्रम्
वस्त्रम्
इदानीं वस्त्रस्य अधः इत्युक्ते किम् अधः
बिलो
कृष्णाजीनं
फस्ट् कुशा देन् उपरि कृष्णाजीनम् उपरि वस्त्रः लैक् देट्
या वस्त्रम् So now he is explaining the other way around. Okay. Upari upari. After that, it is now adaha.
Adaha.
Okay. Agrimam.
Yogi tasmin asane upavishati. Tasmin asane is a saptami vibhakti. Tasmin is a saha tasmin asanaha asane. आसने सः दिशः न अवलोकते
दिशः
दिशः मीन्स् हि डसन्ट् लुक् हियर् अण्ड् देर् अवलोकते इस् लैक् इट् इस् आत्मनेपदी फार्म् हि डसन्ट् रियलैज़् ओर् सी समथिङ्ग् लैक् देट् पश्यति देट् इस् अवलोकते समवाट् सिमिलर्
Can we say observing, avalokan, to observe?
Avalokate, yeah.
So, disha is bahuvachanam or ekavachanam? Bahuvachanam maybe.
Disha, that is bahuvachanam.
So, what is ekavachanam over there?
Disha. I think it is dik, right? Dishau, Dishah. It's also a halanta shabd. Yeah.
Okay. Vamatah, Dakshinatah, Puratah, Prushthatah, Vapi, Drushtim na prasarayati. So, Vamatah is the left, Dakshinatah is the right.
This is easy. What is Vapi?
I thought it should be Kwapi. I don't know. Vapi.
Va-api.
Okay, Va-api.
So, because Vamataha Daksh, all that is given Va. So, that Va is coming at the end, or that's what it means. Left or right, top or bottom. Purataha Prishtaha, so in front or back. Also, so this Vaapi is, I think, a usage that is common in Sanskritam, but not so much in, you can't translate directly into English. So basically it is Vaapi, Drishtim na Prasarayati. Basically it's saying like he doesn't look anywhere else. You know, he doesn't look in the front, back, left or right. Agre?
Manaha Sayamya अन्तः वर्तमानम् आत्मानमेव ध्यायति संयम्य गबन्त ऐ थिङ्क् अन्तः इस् इन्सैड् आत्मानम् एव
सम्यक्
सो वापि इस् लैक् कुत्रापि like that
it can be roughly like that but here in this sentence it is va is referring to all this vamatah dakshinatah and all that vamatah va dakshinatah va like that
okay
so at the end it is given it is like cha is given at the end so va and api
dhanyawad
धन्यवाद भगिनी अवधेयम् अपि पठतु भगिनी
पुरतः पृष्ठतः दक्षिणतः वामतः उपरि अधः अन्तः इत्येषां योगे षष्ठीविभक्तिः प्रयुज्यते means whenever these words comes we have to use shashti vibhakti
prayujyate means upayogam kurvanti or something like that
I have a question Mohan so here we have after adha we have antah antah is inside right
antah is inside yeah
so why don't we use shashti for bahihi like for outside
you can use but generally this panchami is also used with that
okay mohode dhanyawad mohode
yeah geeta yama okay
hmm
So, okay, these are all like a lot of, you can look at this. See, it just gives how the word is formed. Okay, like guruhu. Ga, yogaha u, yogaha r, yogaha u, and with a visarga, guruhu. So we don't need to go over this in detail. Similarly, pita, sena, okay?
Pratyaya kind of thing.
Ajay Mahodaya, ek prashna ha. If you go, if you can go a little bit up, please. More. Yeah, we just yeah, that's it. So the first is sentence, Pandavaha Shikhandinam. So I thought his name was Shikhandi and they are preferring Dvitiya. So Shikhandim, but here it's Shikhandinam. So I didn't get that.
Shikhandi is
it's Shashti Vibhakti, na?
Shikhandin, Shikhandin halanta shabda magini. So Shikhandinam becomes Shashti.
Oh, so his name was Shikhandin.
Shikhandin. Yeah, halanta. Oh. So I don't know why. Yeah, they have given some halanta shabda. We haven't covered actually. Wherever we find it, we'll look at it, but we haven't covered Alanta Shabda. We will cover in the next book, actually. I don't think, I'm not sure. Yeah, it's in the...
Kshamyatam, but it's Shikhandi. That's right, okay.
Yeah. Good observation. We can do these exercises. We have some time. I think we can do the next one. Next one, you can do the next one, Bhagini. Duryodhana.
So, Bhagini, I have one question here. What is halanta shabda? I mean, what is the difference between, like, Ramaha full word, right? Like that. Yes.
Yeah, Ramaha. It's like a with visarga, right? Ramaha. But Shikhandin, that will be the shabda. So, it has that half, right? Whenever that halanta chinna we call, that like on the asit, can you see that asit?
Yes.
There is a chinna, right? That's a halanta chinna. So it's a half. It's a vyanjana, usually is a half, right? That's what we look at here.
But then how do we know whether it is halanta shabda or full with visarga? What is there any trick?
It is like that. His name itself is like that. There is no trick, Dishaha, whatever, that Dishaha came, right? So we have to read a lot. It comes by practice, Bhagini. We are not seeing it yet, but they have used it here. But when you look at when you read the Puranas, you will see that he has been his name. This is just name, right? When you see the Sandarbha of this sentence, you will know. Otherwise, like Dishau, Dishaha, that and all you will know. That we'll cover it next book. But for now, you haven't covered it, right? So there is no trick. Looking at the Sandarbha, you have to read a lot. So you have to observe.
Okay, Dhanyavada Bhagini.
Yeah, so that halanta shabda, like Hanuman, is also a halanta shabda. That's why we generally tend to use Anjaneyaha, right? So, and similarly, the Rikaranta, since we haven't done Mata, Pita, generally we use, you know, Amba, Janani, Janakaha. So as we go along and do these more and more as we go along, it'll come. There are a lot of halanta shabdas that we'll be seeing slowly. Okay, so I think this also you can do as or we can do it right now. Bhagini, can you read the first, complete the first one?
Sure. Pandavaha शिखण्डीनं पुरतः स्थापयित्वा भीष्मेण सह युद्धं कुर्वन्ति.
What is the word? What is the blank you filled?
Puratah.
Okay. It's not Puratah, Puratah. Samyak Bhagini.
Puratah.
Agrimam api karotu.
Duryodhanah Vaishampayana Sarovarasya. We can use anything. Upari asit.
Actually, this is that Sandarbha, right? It's about the Sandarbha of that story. So you will have.
Yeah. So generally, we say like in Hindi, वो वहाँ बैठा था तो सरोवर के किनारे बैठा था. So ऊपरी आस.
No. In this Sandarbha, it's Adaha. But to make the sentence correct, Shashti can be used anything, right? But in that story, what was that one? That story they are referring to. If you do, I mean, as a sentence, you can put anything, right? Purata, Prashtata, whatever, right? Sarovarasya, Purata, Prashtata. But if you really know the story, it's Adaha Asi.
Adaha Asi.
Bhagini, it's Antaha. He's scared and he...
Oh, inside.
Inside.
You can say...
Anta
may be appropriate, yeah.
Sure. Dhanyavada.
Okay. Jaya Bhagini, Agrima Dvayam Karotu, Samapeta.
Ram Bhagini, Namaskara. Arjunaha Vishwarupinam कृष्णं नमस्कृतवान् अधः अधः वामतः च नमस्कृतवान्
you have that cha, right? You have to use all those purata because he was so big, no? So he used all, yeah. Prashta cha you have, so you can use them. Yeah, I think it's from the sloka.
Yeah, yeah. Purata
cha. Yep.
तत्त्वस्थाः सत्त्वस्थाः गच्छन्ति लैक् सत्त्वस्थाः सात्विकभावः रैट् भवान् सात्विकभावः उपरि गच्छन्ति तामसाः अन्तर्गतवन्तः
Adaha maybe. Yeah, it's 14.
Yeah.
So they are just, we are revisiting all this Purata, Prashtata, how the usage. It's just little bit, so it's, they are really making you practice all this. So we are ready for, that's the thing. So better to do all these exercises. So Vibhakti is and all will be clear. So whatever we haven't done, or if you have your textbook, please fill all that. So, and if, yeah, the story also we can do day by day. I can send you stories and you can, I can send you one story also. That also you can do. Parallel, you can do at least one paragraph every day. So you write also, it will become very clear to you. So that's how you get command over the language.
Yeah, I'll send the homework this week. I think I missed the last couple of weeks or so, but this week you can expect some home assignment.
Yeah, if you have done the story, that's well and good. That also is a good exercise. So
Sarla Bhagini, from that story, just one question. There was a word Purva Janmani. So I think you showed the homework which she said it's a Saptami Vibhakti. So what is the actually word for that Janmani? I got that also. Meaning.
That also is a Janman. Okay, Janman is like in the, it's also
Halanta Shabda.
Halanta Shabda. So it's an Apunsakalinga. So yeah, that's why Janmani in this life. In Saptami Ekvachana, that bit.
Janmani. Okay.
So by the context, maybe you can, but yeah, we can't control, right? They are the stories written with all the mixed words. So yeah, if you have questions, yeah, you can note down and find out, or you can ask in the class, sure, or sure. You can say.
Yeah, okay? In the dictionary, they have Asmin Janmani. So I got this like.
Yeah, exactly. Asmin, yeah. Next to Asmin means, yeah, it's Saptami. So that's the, yeah, that's the exactly how you will get to know. Okay.
Then whatever.
Okay, so Prasanam Vadatu Bhagini. Can you see the screen?
I'm Bhagini.
Vadatu.
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्ति
धन्यवादः भगिनि नमस्कारः
धन्यवादः नमस्कारः
धन्यवादः